पिङ्गल उवाच अहो मे मोहवीतातिं पश्यता विजितात्मना या कन्तरसता कामं कामये येन बालिश कान्तरसता कामं कामयेन बालिश सन्तां समीपे रमणं रतिप्रदं विताप्रदं नित्यमिमं विहाय अकामदां दुःखभयादिशोक मोहप्रदं तुच्छमहं भजे सन्तां समीपे रमणं रतिप्रदं विताप्रदं नित्यमिमं विहाय अकामदां दुःखभयादिशोक मोहप्रदं तुच्छमहं भजे नूनं मे भगवन् प्रीतो विष्णुकेनापि कर्मणा निर्वेदोऽयं दुराशाय यन्मे जत सुखावह मायैवं स्योर्मन्दभाग्याय क्लेशनिवेरहे तव येननुबन्धं निहृत्य पुरुषसमं ऋच्छति सन्तं समीपे रमणं रतिप्रदं विताप्रदं नित्यमिमं विहाय अकामदां दुःखभयादिशोक मोहप्रदं तुच्छमहं भजे सन्तं समीपे रमणं रतिप्रदं विताप्रदं नित्यमिमं विहाय अकामदां दुःखभयादिशोक मोहप्रदं तुच्छमहं ग्रम्यसङ्गतः त्यक्त्वा दुराशशारणं व्रजामि तमधीश्वरम् सन्तुष्टश्रद्धदातेतर् यथा लाभेन जीवति विहरं यमुनैवाहम् आत्मना रमणेन वै सन्तां समीपे रमणं रतिप्रदं विताप्रदं कामदां दुःखभयादिशोक मोहप्रदं तुच्छमहं भजे सन्तां समीपे रमणं रतिप्रदं विताप्रदं नित्यमिमं विहाय अकामदां दुःखभयादिशोक मोहप्रदं तुच्छमहं भजे